सहनाभवतु सहनो भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः अद्य इन्द्रसूक्तं पश्यामः एतत् सूक्तं द्वितीयमण्डले वर्तते ऋग्वेदस्य अस्य सूक्तस्य एवं विवरणमस्ति ऋषिदेवता छन्दसां पञ्चदशर्चं प्रथमं सूक्तं गात्समदं त्रैष्टुभम् ऐन्द्रम् इत्यस्ति तर्हि पञ्चदश ऋचः सन्ति अस्मिन् सूक्ते इन्द्रसूक्ते पञ्चदशमन्त्राः सन्ति गात्समदम् इत्यस्ति गृत्समदः इति ऋषिः अस्य गृत्समदः इति ऋषिः त्रैष्टुभं त्रिष्टुप्छन्दः ऐन्द्रम् इन्द्रदेवताकम् इन्द्रः एव अत्र स्तूयमानः देवः विनियोगादिकमपि अस्ति विश्वजित् इत्यादि यागे अस्य उपयोगः भवति इत्यादि अस्य सूक्तस्य काचित् कथा अस्ति एतत् सूक्तसम्बद्धा काचित् कथा अस्ति अत्र एतेषु मन्त्रेषु कस्यचन शब्दसमूहस्य पुनरावृत्तिः भवति सजनास इन्द्रः इति सः एव इन्द्रः ये जनाः सः एव इन्द्रः इति सः गृत्समदऋषिः वदति अत्र का कथा इति चेत् त्रिप्रकारेण सा कथा उच्यते संयुज्य तपसात्मानम् ऐन्द्रं बिभ्रन् महद्वपुः अदृश्यतमुहूर्तेन दिविजव्योम्निचेह च तमिन्द्र इति मत्वा तु दैत्यो भीमपराक्रमौ दैत्यौ भीमपराक्रमौ ध्वनिश्च चूरिश्चोभौ सायुधावभिवेततुः इति त्वा स तयोर्भावं ऋषिः पापं चिकीर्षतोः यो जात इति सूक्तेन कर्मणा कर्माणि ऐन्द्राणि अकीर्तयते द्वौ राक्षसौ धुनिः चुमुरिः इति तौ द्वौ आकाशे दृष्टवन्तौ गृत्समदर्षिणि सः तु इन्द्रः इव अस्ति तस्य मुखं तस्य स्वरूपम् इन्द्रः इन्द्रस्य इव अस्ति अतः तं मारयितुम् एतौ द्वौ आगतवन्तौ तदा उक्तवान् न न न अहम् इन्द्रः न अहं तु गृत्समदः इन्द्रः अन्यः सः कीदृशः अस्मिन् सूक्ते अस्ति यो जात एव इति तस्मिन् सूक्ते अहं तु सामान्यः सः तु इन्द्रः कीदृशः इति एषा एका प्रकारिका कथा अन्या कथा अस्ति पुरा किल इन्द्रादयः वैन्ययज्ञं समाजग्मुः गृत्समदोऽपि तत्र आगत्य सदस्य आसीत् दैत्यश्च इन्द्रजिघांसया दैत्याश्च इन्द्रजिघांसया तत्र समागमन् तान् दृष्ट्वा निर्जगाम इन्द्रः यज्ञात् गृत्समदाकृतिः स च गृत्समदः वैन्येन पूजितः यज्ञवाटान् निरगच्छत् निर्गच्छन्तं तमर्षिं दृष्ट्वा अयमेव इन्द्रः इति मन्यमानाः तम् असुराः परिवव्रुः नाहमिन्द्रः तुच्छः किं देवं गुणोपेतः सः इत्यनेन सूक्तेन तान् प्रत्युवाच अन्यस्मिन् नाम एषा एव कथा किञ्चित् भिन्नप्रकारेण उच्यते वैन्यः इति कश्चित् सः यज्ञं कृतवान् तत्र इन्द्रादयः देवताः आगतवन्तः एषः गृत्समदः अपि आसीत् तत्र अनन्तरं ते सर्वेपि तत्रत्य दैत्याः अपि तत्र आगतवन्तः इन्द्रं मारयितुं परन्तु इन्द्रः ततः गृत्समदस्य वेषं धृत्वा बहिर्गतवान् अतः सर्वेपि गृत्समदं मारयितुम् आगतवन्तः गृत्समदः अपि यज्ञस्य पूजादिकं समाप्य बहिर् यदा गतः तदा तं परितः आवृत्य स्थित्वा मारयितुं सिद्धाः तदा गृत्समदः वदति अहम् इन्द्रः न सः तु पूर्वमेव गतवान् मम वेषेण इति एषा द्वितीया कथा पुनः एवमेव अनेनैव प्रकारेण तृतीया कथा अस्ति गृत्समदस्य यज्ञे प्रविष्टम् एकाकिनम् इन्द्रं ज्ञात्वा असुराः परिववृः स इन्द्रः गृत्समदरूपेण यज्ञवाटान् निर्गत्य स्वर्गं जगाम ततः असुराः इन्द्रः विलम्बितः इत्यन्तः प्रविश्य गृत्समदं दृष्ट्वा पूर्वमेव गृत्समदः गतः अयं तु इन्द्रः अस्मात् भयात् गृत्समदरूपेण आस्ते इति तं जगृहु तान् उद्दिश्य एतत् सूक्तं सः उवाच गृत्समदस्यैव यज्ञः तत्र इन्द्रः आगतवान् बहिः असुराः सन्ति इति कृत्वा सः निर्गतः इन्द्रः बहुकालात् अन्तः अस्ति किल बहिर्नागतवान् किल इति यदा एते सर्वे अन्तः गत्वा दृष्टवन्तः कृच्छमदः एव अस्ति ओ इन्द्रः एव कृच्छमदरूपेण अस्ति इति ज्ञात्वा तं मारयितुम् आगतवन्तः तदा कृच्छमदः इति न सः पूर्वं गतः अहं तु वस्तुतः कृच्छमदः एव इति अयमेव अर्थः महाभारते प्रपञ्चितः इति एषा कथा तृतीया कथा या अस्ति सा महाभारते अपि वर्तते इति विशिष्य ऋग्वेदस्य याः कथाः भवन्ति ताः महाभारते अपि ताः उच्यन्ते किञ्चित् भिन्नप्रकारेण शैली किञ्चित् परिवर्तिता भवति सो एषा एव पृष्ठभूमिः अस्य सूक्तस्य यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पद्यभूषत यस्य शुष्माद्रोदसी अभ्यसेतान् ब्रह्मणस्य मह्ना स जना स इन्द्रः एषः मन्त्रः ऋग्वेदसंहिता यजुर्वेदसंहितायामपि अस्ति अतः सस्वरं जानामि अस्तु गृत्समदः ब्रूते अत्र अन्वयं पश्यामः अन्वयक्रमेण एकैकं पदं भवति तत्र चेतुं शक्नोति प्रथमं तत्र जनासः इत्यस्ति अन्ते द्वितीयपादस्य अन्ते जनासः इत्यस्ति जनासः इति चेत् जनाः इत्यर्थः सर्वत्रापि सः तत्र स इत्येतत् एक्स्ट्रा तद्भवति वेदे वैदिकशैली एषा जनाः सम्बोधनं हे जनाः विशिष्य असुराः इत्यर्थः यो जातः एव आरम्भे अस्ति यो जातः एव नाम जायमानः एव सन् यदा जन्म प्राप्नुवन्नेव आसीत् प्रथमः देवानां प्रधानभूतः एषः जायमानः एव सः प्रधानभूतः जातः मनस्वान् मनस्विनाम् अग्रगण्यः मनस्विनः इति चेत् धैर्यशालिनः इत्यर्थः पराक्रमोपेताः इत्यर्थः मनस्वान् देवः द्योतमानः नाम प्रकाशयुक्तः क्रतुना क्रतुशब्दस्य कः अर्थः इति चेत् वृत्रवदा वधादिलक्षणेन स्वकीयेन कर्मणा नाम सः महत्पराक्रमकार्याणि कृतवान् वृत्रस्य वधः एवम् अहिः इति कश्चन अस्ति अनन्तरं शम्बरः इत्यस्ति एतादृशनानाविध असुराणां मारणं कृत्वा स्वस्य पराक्रमं सः प्रतिष्ठापितवान् तर्हि क्रतुशब्दस्य अत्र कर्म इत्यर्थः वीर्यवत् कर्म इत्यर्थः क्रतुना स्वस्य एतादृशेन कर्मणा देवान् सर्वान् यागदेवान् मित्रवरुणादिदेवान् पर्यभूषत् रक्षकत्वेन पर्यग्रही तान् सर्वानपि सः एतेषां भवतां सर्वेषां देवानाम् अहं रक्षकः भवामि किमर्थं मम सामर्थ्यमस्ति पराक्रमः अस्ति तादृशः इन्द्रः इति नाम अहं तु अहं कृत्समदः सामान्यः परन्तु इन्द्रः देवानामेव रक्षकः तज्जानातु इति हे जना सः इति अनन्तरम् एषः एवं प्रथमवाक्यं समाप्तं द्वितीये यस्य इन्द्रस्य सुष्मात् शारीरात् बलात् सुष्मशब्दस्य शारीरं बलम् इत्यर्थः तस्य बलात् रोदसी द्यावा पृथिव्यौ रोदस्शब्दस्य रोदसी इति शब्दस्य द्यावा पृथिव्यौ इति अर्थः सर्वत्र एष एव अर्थः भवति रोदसी इति यत्र यत्र प्रयोगः भवति तत्र द्यौः पृथिवी एतद्वयं मिलित्वा इत्यर्थः यस्य सुष्मात् यस्य शरीरबलात् द्यावा पृथिव्यौ अभ्यसेताम् अभिभीताम् साक्षात् द्विलोकस्य पृथिव्याश्च भयमेव इन्द्रस्य बलात् तादृशं भयमेव भवति इति अनन्तरं नृम्णस्य सेनालक्षणस्य बलस्य सेनासदृशबलस्य नृम्णशब्दः सेनायां विद्यमानं बलं सूचयति नृम्णस्य मह्ना शब्दस्य महत्त्वेन युक्तः नाम इन्द्रः कीदृशः इति चेत् एकस्याः सेनायाः यत् बलं तादृशमह्नायुक्तः तादृशसैन्यस्य बलं यस्य अस्ति तादृशम् एकस्मिन्नेव भवति इन्द्रे मह्ना शब्दस्य महत्त्वेन युक्तः नृम्णस्य मह्ना इति चेत् सेनायाः बलं यदस्ति तादृशमहत्त्वयुक्तः इति सः अस्ति चेत् एका सेना अस्ति इत्यर्थः तादृशः इन्द्रः न अहम् इत्यर्थः इति कृत्समदः दर्शयति अग्रे अनेनैव क्रमेण भविष्यति एतत् सूक्तं सर्वदा यः पृथिवीं व्यथमानाम् अदृम्भत् यः पर्वतान् प्रकुपितान् अरम्णात् यो अन्तरिक्षं विममे वरीयो यो द्याम अस्तभ्नात् स जना स इन्द्रः। अत्रापि भवती द्रष्टुमर्हति तत्र स जना स इन्द्रः इति, हे जनाः सः इन्द्रः अहं न इति। अत्र किमस्ति नाम सामान्यतः इन्द्रः सर्वदापि बलस्य अधिपतिः, बलं विशिष्य तत्र एतद् भवति किल थण्डर्, थण्डर् इति यदस्ति तस्य एषः प्रतिनिधिभूतः इति, मेघानां विभागं करोति, जलमानयति इत्यादिरूपेण तस्य विवरणं भवति। इदानीं द्वितीयमन्त्रः, हे जनाः, तत्तु पूर्वमेव जनासः इत्यस्ति, यः नाम इन्द्रः व्यथमानां पृथिवीम् आरम्भे अस्ति, यः पृथिवीं व्यथमानां, व्यथमानशब्दस्य चलन्तीं नाम चलनकम्पमानां पृथिवीम् अदृम्भत् नाम अस्थिरां पृथिवीम् अदृम्भत् इति चेत् दृढाम् अकरोत्, शर्कराभिः दृढाम् अकरोत्। शर्कराशब्दस्य पर्वतादिकम् इत्यर्थः, सः कठिन राक्स् इत्यस्ति किल, शर्कराशब्दस्य राक् इत्यर्थः। पूर्वं पृथिवी व्यथमाना आसीत्, कम्पमाना आसीत्, चलन्ती आसीत्, सः शर्करादिकं कल्पयित्वा राक्स् इत्यादि सर्वं निर्माय सः दृढां कृतवान्। यः व्यथमानां पृथिवीम् अदृम्भत् इति प्रथमः, अनन्तरं यः प्रकुपितान् पर्वतान् अरम्णात् द्वितीयं, यः तादृशः या इन्द्रः प्रकुपितान्, प्रकुपितशब्दस्य कः अर्थः, भाष्यकारः वदति इतः ततः चलितान् पक्षयुक्तान्। रामायणेपि वयं शृणुमः तत्र पर्वतानां पक्षौ आस्ताम्, इन्द्रः एव तत्र पक्षान् कर्तितवान् इत्यादि अस्ति। एकः एव पर्वतः रक्षितः मैनाकः, सः एव नाम वायोः साहाय्येन रक्षितः सः, अतः अनुमतः साहाय्यं करोति इति। अतः एषा कथा वेदादस्ति, यः प्रकुपितान् पक्षयुक्तान् पर्वतान् अरम्णात्, अरम्णात् इत्युक्ते कः अर्थः, नियमितवान्, स्वे स्वे स्थाने स्थापितवान्, हे पर्वताः भवन्तः न चलन्तु एकत्र भवन्तु इति, सः एव पक्षादिकं कर्तयित्वा अरम्णात् नियमितवान्, स्थापितवान्, स्वस्वस्थाने स्थापितवान्। यः पर्वतान् प्रकुपितान् अरम्णात्, अनन्तरं यः वरीयः अन्तरिक्षं विममे, यः यादृशः इन्द्रः वरीयः अन्तरिक्षम्, अन्तरिक्षं जानीमः तत्र उपरितन आकाशलोकः, कीदृशं कीदृशं तदन्तरिक्षं, वरीयः इति विशेषणम् अन्तरिक्षस्य, वरीयः नाम उरुतमम् अतिविशालम् इत्यर्थः। यः विशालम् अन्तरिक्षं विममे, विममे निर्ममे विस्तीर्णं चकार, यः अन्तरिक्षस्य विस्तरणे कारणभूतः सः, यः वरीयः अन्तरिक्षं विममे। अनन्तरं यो द्याम् अस्तभ्नात्, यः द्याम् अस्तभ्नात्, यः द्यां द्युलोकम् अस्तभ्नात् तस्तम्भ नाम निरुद्धाम् अकरोत्। नाम यथा पृथिव्याः चलनं स्तम्भयित्वा स्थिरान् कृतवान्, एवमेव सः द्युलोकस्यापि स्थैर्यम् आपादितवान् इत्यर्थः। नाम सर्वशक्तः एषः इति, पृथिव्याः पर्वतानाम् अन्तरिक्षस्य अनन्तरं द्युलोकस्यापि स्थैर्यप्रदाता इन्द्रः, तादृशपराक्रमशाली सः इन्द्रः, अहं तु साधारणः इति कृत्समदः वदति। अनन्तरं तृतीयः मन्त्रः, यो हत्वा अहिम् अरिणात् सप्तसिन्धून्, यो गा उदाजदपधा बलस्य, यो अश्मनोरन्तरग्निं जजान संवृक् समत्सु स जना स इन्द्रः इति। पुनः तदेव पल्लवी अस्ति, स जना स इन्द्रः इति। कीदृशः इन्द्रः, यः अहिं हत्वा सप्तसिन्धून्, आमां सप्तसिन्धून् प्रैरयत् इत्यस्ति। अरिणात्, अरिणात् सत्यं, यः अहिं हत्वा सप्तसिन्धून् अरिणात् इत्यस्ति। यः यः इन्द्रः अहि अहि शब्दस्य मेघः इत्यर्थः अहि शब्दस्य अहि सामान्यभाषायाम् अहि शब्दस्य सर्पः इत्यर्थः परन्तु अत्र मेघः इत्यर्थः मेघः मेघं हत्वा मेघहननं कृत्वा मेघानां संहननं कृत्वा सप्त सप्तसिन्धून् सप्तशब्दस्य सर्पणशीलाः इत्यर्थः सर्पणं नाम चलनम् इत्यर्थः सिन्धून् नद्यः अरिणा प्रैरयत् सः किं कृतवान् मेघानां हननं कृत्वा ततः जलं प्रेरितवान् येन सप्तसिन्धवः सप्त नद्यः तत्र प्रवृत्ताः गङ्गा यमुनाद्याः मुख्याः नद्यः तेषां प्रवाहस्य कारणीभूतः एषः इत्यर्थः तादृशः श्रेष्ठः एषः यः हत्वा अहिम् अरिणात् सप्तसिन्धून् योगा उदाजत् अपधा बलस्य इति यः बलस्य 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 इत्येव अस्ति वल वलारिः इत्यस्ति तस्य वल वलश वलः वल वलः नाम कश्चन असुरः वलनामकस्य असुरस्य यः वलस्य अपधा अपधा इत्युक्ते तत्कर्तृकान् निरोधात् निरुद्धाः नाम सः किं कृत गाः उदाजत् निरगमयत् कश्चित् बलः नाम असुरः सः गाः नीतवान् नीत्वा निरुद्धाः कृतवान् एकत्र इन्द्रः किं कृतवान् तस्य बलस्य निरोधः यः आसीत् गवां निरोधं छित्त्वा गवां विमोचनं कल्पितवान् तादृशः सः उदाजत् यः गाः उदाजत् अपधा उदाजत् नाम निरगमयत् निर्गमनं कारितवान् कासां निर्गमनं गवां निर्गमनं गावः ततः बहिः गच्छन्तु इति सः तत् कल्पितवान् किं कृत्वा सः बलः तेषां निरोधं कल्पितवान् आसीत् किल यथा गाः बहिर्न गच्छेयुः इति तादृश्याः अपधायाः निवारणं कृत्वा गवां बहिः प्रेरणे सः समर्थः जातः इत्यर्थः यः गाः उदाजत् अपधा वलस्य अनन्तरं वलनामकः असुरः अत्र बहु इण्टर्प्रिटेशन् कुर्वन्ति सामान्यसाक्षात् मन्त्रार्थः एषः गौः नाम वयं पूर्वमपि दृष्टवन्तः गोशब्दस्य सूर्यकिरणम् इत्यपि अर्थः अस्ति अतः अन्धकारवलो नाम कश्चन असुरः यः सूर्यकिरणानां प्रेरणे निरोधं कल्पितवान् तस्य निवार एतादृश इण्टर्प्रिटेशन् अपि भवितुमर्हति परन्तु भाष्ये तन्न उल्लिखितं परन्तु वयमेव दृष्टवन्तः पूर्वत्र गोशब्दस्य सूर्यकिरणम् इत्यपि अर्थः अस्ति परन्तु अस्मिन् सन्दर्भे न दत्तम् अनन्तरं यो अश्मनोरन्तरग्निं जजान अत्रैव वैशिष्ट्यं मम बहु आश्चर्यं जातं यः अश्मनोः अन्तः अग्निं जजान इत्यस्ति सामान्यतः कोशं स्वीकृत्य पश्यामः अश्मशब्दस्य कल् इत्यर्थः राक् इति अर्थः परन्तु यः अश्मनोः अन्तः अग्निं जजान किं शिलाखण्डस्य मध्ये द्वयोः शिलाखण्डयोः मध्ये अग्निं कल्पितवान् इति अर्थः भाति परन्तु भिन्नः एव अर्थः अस्ति अश्मशब्दस्य अत्र मेघः इत्यर्थः द्वयोः मेघयोः मध्ये घर्षणं कृत्वा विद्युतं यः कल्पितवान् इति अर्थः भवति अतः आपाततः डिक्षनरी मीनिङ्ग् दृष्ट्वा ट्रान्स्लेशन् पश्यामः चेत् क्लेशः एतदेव बहु चकितताम् अकरोत् अतः यः अश्मनोः नास्ति भाष्ये अन्यथा अस्ति तदेव आपाततः पश्यामः अन्यः अर्थः अत्र पश्यतु यः अश्मनोः अश्नुते व्याप्नोति अन्तरिक्षम् इति अश्म मेघः अशु व्याप्तौ इति धातुं गृहीत्वा मेघः आकाशं व्याप्नोति किल अतः यत् व्याप्नोति अश्मशब्दस्य मेघः इत्यर्थः अत्यन्तं मृदुरूपयोः मेघयोः अश्मनोः अन्तः मध्ये वैद्युतम् अग्निं जजान सः ಭೂಲೋಕಸ್ಯ ದೇವಃ ನಾಸ್ತಿ ಗಿರ ಸಹ ತು ದ್ವಿಲೋಕಸ್ಯ ದೇವಃ ತರ್ಹಿ ಸಹ ಅಶ್ವನೋಃ ಮಧ್ಯೆ ಅಗ್ನಿಂ ಜಜಾನ ಇತಿ ಚೇತ್ ಮೇಘಯೋಃ ಅಪಿ ಲಭತಮೇವ ವರಂ ಅತ್ರ ಕಥಂ ನ ಯುಜ್ಯತೆ ಕಿಲ ಬಿಟ್ವೀನ್ ರಾಕ್ಸ್ ಇತಿ ನ ಭವತಿ ಅತಃ ಏತತ್ ಕೋಟ್ ಕೃತ್ವಾ ಅಪಿ ಲೇಖಿತುಂ ಅರ್ಹತಿ ಭಾಷ್ಯೇ ಮೇಘಯೋಃ ಮಧ್ಯೆ ಇತಿ ಅಸ್ತಿ ಪರಂತು ಅತ್ರ ಅನುವಾದೆ ಬಿಟ್ವೀನ್ ರಾಕ್ಸ್ ಇತಿ ಅಸ್ತಿ ಇತಿ ಅತಃ ವೈದ್ಯುತಂ ಅಗ್ನಿಂ ಇತ್ಯೇವ ಉಕ್ತಮಸ್ತಿ ಅತ್ರ ವಿದ್ಯುತ್ ಲೈಟ್ನಿಂಗ್ ತದೇವ ಅತ್ರ ಉಲ್ಲಿಖಿತಂ ಯಹ ಅಶ್ವನೋ ಅಂತಃ ಅಗ್ನಿಂ ಜಜಾನ ಉತ್ಪಾದಯಾಮಾಸ ಸಹ ಉತ್ಪಾದಿತವಾನ್ ಅನಂತರಂ ಸಂವೃಕ್ ಸಮತ್ಸು ಸಂವೃಕ್ ಸಮತ್ಸು ಸಮತ್ಸು ಸಂಗ್ರಾಮಃ ಇತ್ಯರ್ಥ ಸಮತ್ಸು ನಮ ಸಂಗ್ರಾಮೇಷು ಸಂಭಕ್ಷಯಂತಿ ಯೋಧೃಣಾಂ ಆಯುಂಷಿ ಇತಿ ಸಮದಃ ಸಮತ್ ಶಬ್ದಸ್ಯ ಕಃ ಅರ್ಥಃ ಇತಿ ಚೇತ್ ಯತ್ರ ಯುದ್ಧಕರ್ತೃಣಾಂ ಆಯುಃ ಭಕ್ಷಿತಂ ಭವತಿ ತದೇವ ಸಮದಃ ಇತಿ ಉಚ್ಯತೆ ಸಮದಃ ನಾಮ ಯುದ್ಧಂ ಇತ್ಯರ್ಥಃ ಏತಾದೃಶ ಸಮತ್ಸು ಯುದ್ಧೇಷು ಏಷ ಕಿಂ ಕರೋತಿ ಇತಿ ಚೇತ್ ಸಹ ಸಂವೃಕ್ ಸಂವೃಕ್ ನಾಮ ತತ್ರ ಭವತಿ ಇತ್ಯರ್ಥ ಯತ್ರ ಯತ್ರ ಯುದ್ಧಂ ತತ್ರ ತತ್ರ ಏಷಃ ಇತ್ಯರ್ಥ ಯತೋ ಹಿ ಇಚ್ಛತಿ ಸಹ ಪರಾಕ್ರಮೀ ಸಹ ಯುದ್ಧ ಯುದ್ಧ ಕಾಂಕ್ಷಿ ಅಸ್ತಿ ಸಹ ತಾದೃಶಃ ಪರಾಕ್ರಮಯುಕ್ತಃ ದೇವಃ ಸಹ ಏವ ಇಂದ್ರಃ ಅಹಂ ತು ಯುದ್ಧಂ ಕರ್ತುಂ ನೇಚ್ಛಾಮಿ ಭವತಾ ಸಹ ಯುದ್ಧಂ ಅಹಂ ಕರ್ತುಂ ನ ಪ್ರಭವಾಮಿ ಇತ್ಯರ್ಥ ತೇನ ಸಹ ಗತ್ವಾ ಯುದ್ಧಂ ಕರೋತು ಇತಿ ಅಗ್ರಿಮ ಮಂತ್ರಃ ಯೇನೇಮ ವಿಶ್ವಾ ಚವನಾ ಕೃತಾನಿ ಯೋ ದಾಸಂ ಪರ್ಣಮಧರಂ ಗುಹಾಕಃ ಶ್ವಘ್ನೀವ ಯೋ ಜಿಗೀವಾನ್ ಲಕ್ಷಮಾದದರ್ ಲಕ್ಷಮಾದದದ್ಯಃ ಪುಷ್ಟಾನಿ ಸಜನಾಸ ಇಂದ್ರಃ ಲಕ್ಷಮಾದದತ್ ಯಃ ಇತಿ ಆದದದ್ಯಃ ಇತ್ಯಸ್ತಿ ಆದದತ್ ಆದದದ್ಯಃ ಪುಷ್ಟಾನಿ ಸಜನಾಸ ಇಂದ್ರಃ ಇತ್ಯಸ್ತಿ ಲಕ್ಷಂ ಆದತ್ ಲಕ್ಷಮಾದದರ್ಯಃ ಸಾರಿ ಸ್ವಗ್ನೀವಯೋ ಜಿಗೀವಾನ್ ಲಕ್ಷಮಾದದರ್ಯಃ ಪುಷ್ಟಾನಿ ಅತ್ರ ಪಶ್ಯಾಮಃ ಯೇನೇಮ ಯೇನ ಯೇನ ಇಂದ್ರೇಣ ಇಮಾಹ ಇಮಾನಿ ಇಮಾ ಇತ್ಯೇವ ಇಮಾನಿ ಇತ್ಯರ್ಥ ಯೇನ ಇಮಾನಿ ವಿಶ್ವಾನಿ ಚವನ ಪುನಃ ಚವನಾನಿ ಇತಿ ಕರಣೀಯ ಚವನ ಚವನಂ ನಾಮ ಯಚ್ಯುತಂ ಭವತಿ ನಶ್ಯತಿ ನಶ್ವರಂ ಇತ್ಯರ್ಥ ನಶ್ವರಾಣಿ ಭುವನಾನಿ ಕೃತಾನಿ ಸ್ಥಿರೀಕೃತಾನಿ ಇತ್ಯರ್ಥ ಯೇನೇಮ ವಿಶ್ವಾ ಚವನ ಕೃತಾನಿ ಇತ್ಯಸ್ಯ ಕಃ ಅರ್ಥಃ ಯೇನ ಇಂದ್ರೇಣ ಏತಾನಿ ಸರ್ವಾಣಿ ಭುವನಾನಿ ಯಾನಿ ಚವನಾನಿ ನಮ ಯಾನಿ ನಶ್ವರಾಣಿ ತಾನಿ ಸರ್ವಾಣ್ಯಪಿ ಸ್ಥಿರೀಕೃತಾನಿ ಇತಿ ಪ್ರಾಯಃ ಜಲಾದಿದಾನ ರೂಪೇಣ ಜಲಸ್ಯ ಪ್ರೇರಣೇನ ಸಹ ಭುವನಾನಾಂ ಸ್ಥಿರೀಕರಣಂ ಕೃತವಾನ್ ಇತಿ ಭಾತಿ ತಾದೃಶಃ ಇಂದ್ರಃ ಯಃ ದಾಸಂ ವರ್ಣಂ ಯಃ ದಾಸಂ ವರ್ಣಂ ಅಧರಂ ಗುಹಾ ಅಕಃ ಇತ್ಯಸ್ತಿ ಯಃ ದಾಸಂ ವರ್ಣಂ ದಾಸಂ ವರ್ಣಂ ಇತ್ಯಸ್ಯ ಭಾಷ್ಯೆ ಶೂದ್ರಾದಿಕಂ ಇತ್ಯರ್ಥಃ ಶೂದ್ರಾದಿಕಂ ಅಥವಾ ಅನ್ಯಃ ಅಪಿ ಅರ್ಥಃ ಅಸ್ತಿ ದಾಸಂ ಉಪಕ್ಷಪಯಿತಾರಂ ಉಪಕ್ಷಪಯಿತ ಏಕಕ್ಷಣಂ ಉಪಕ್ಷಪಯಿತ ಇತ್ಯಸ್ಯ ಉಪಕ್ಷಪಯಿತ ಇತಿ ತತ್ರ ನಾಸ್ತಿ ತಸ್ಯ ಅರ್ಥಃ ಭಾಷ್ಯೆ ದಾಸಂ ವರ್ಣಂ ಇತ್ಯಸ್ಯ ಶೂದ್ರಃ ಇತ್ಯೇಕಃ ಅರ್ಥಃ ದತ್ತಃ ಅಸ್ತಿ ಅನ್ಯಃ ಅರ್ಥಃ ಉಪಕ್ಷಪಯಿತ ಇತಿ ಅಸ್ತಿ ಉಪಕ್ಷಪಯಿತ ಇತ್ಯಸ್ಯ ದ ಒನ್ ಹೂ ಡೆಸ್ಟ್ರಾಯ್ಸ್ ಯಹ ನಾಶನಶೀಲಃ ತಮೋಗುಣಯುಕ್ತಃ ಇತ್ಯರ್ಥಃ ತಾದೃಶ ತಮೋಗುಣಯುಕ್ತಾನ್ ಇತಿ ಅರ್ಥಃ दासं वर्णम् इत्यस्य एकः अर्थः भाष्ये शूद्रादिकम् इत्यर्थः अथवा दासम् इति शब्दस्य यः उपक्षपयिता यः नाशनशीलः डेस्ट्रक्टिव् नेचर् पर्सन् हू हेस् द डेस्ट्रक्टिव् नेचर् तादृशं किं कृतवान् अधरं निकृष्टं गुहायां गुहास्थाने अकः अकार्षि इन्द्रः किं कृतवान् ये जनाः नाशनशीलाः परेषां वा पीडनशीलाः नाशनोन्मुखाः भवन्ति तान् ते सर्वेपि अधराः ते सर्वेपि नीचाः ये येषां जगदुपकारकत्वं नास्ति तेषां नीचत्वमेव अधरत्वमेव अत्र पुनः कापि जातिः एवम् एते ब्राह्मणाः क्षत्रियाः इत्यादि किमपि नास्ति अत्र ये नाशकस्वभावयुक्ताः ता ते सर्वेपि नीचाः तान् किं कृतवान् गुहायां गूढस्थाने अथवा नरके अकः अकार्षि स्थापितवान् इति ये तादृश दुष्प्रवृत्तिमन्तः तान् सर्वानपि सः नरके स्थापयति स्थापितवान् इति येनेमा विश्वा चवना कृतानि यो दासं वर्णम् अधरं गुहा अकः गुहायां स्थापितवान् अनन्तरं लक्षं जिगीवान् सः लक्षं जिगीवान् लक्षं जिगीवान् इत्यस्ति तृतीयपादे लक्षं नाम लक्ष्यं जिगीवान् लक्ष्यस्य जयं प्राप्तवान् इति एषः सर्वदापि हि आल्वेस् हिट्स् द टार्गेट् इत्यर्थः इन्द्रस्य तादृशस्वभावः यत् सः लक्षं जिगीवान् सः सर्वदापि लक्ष्यं प्राप्नोत्येव इति अनन्तरं यः आर्यः आर्यः अरेः पुष्टानि आदत् यः अरेः श्वग्रीव इत्येतत् उपमानमस्ति अन्ते वदामि तत् यः लक्षं जिगीवान् आर्यः पुष्टानि आदत् एषा अन्यत् किं करोति एषा लक्ष्यं प्राप्नोति सर्वदापि हि इस् आल्वेस् आन् टार्गेट् अनन्तरम् आर्यः नाम अरेः शत्रोः पुष्टानि समृद्धानि शत्रोः यत् सम्पत् अस्ति तत् आदत् सः स्वीकरोति इत्यर्थः सः लक्ष्यं प्राप्नोति शत्रूणां यत् सम्पत् तदपि एषः अर्जयति तत्र दृष्टान्तः कथं सः शत्रूणां यत् पुष्टियुक्तं तदाहरति इति चेत् श्वघ्नीव श्वघ्नी शब्दस्य व्याधः इत्यर्थः व्याधः हण्टर् श्वभिः मृगान् हन्ति इति श्वघ्नि सः व्याधस्य समीपे शुनकाः भवन्ति किल सः किं करोति तत्र कुत्रापि शशः अस्ति चेत् प्रथमं शुनकान् प्रेषयित्वा शुनकेभ्यः सः आहरति एते शुनकाः सर्वदापि साक्षात् गृहीत्वा आगच्छन्ति अतः श्वघ्नी शब्दस्य व्याधः इत्यर्थः यथा व्याधः लक्ष्यं प्राप्नोति यथा व्याधः शत्रोः पुष्टियुक्तं सर्वम् आहरति एवम् एषः लक्ष्यं प्राप्य यत् पुष्टियुक्तं शत्रोः समीपे अस्ति तत्सर्वम् अस्मदर्थं सम्पादयसि सः इन्द्रः अहं न अग्रिमः मन्त्रः पञ्चमः यं स्मा पृच्छन्ति कुहसेति घोरम् उतेमाहुर्नैषो अस्तीत्येनं सो अर्जः पुष्टीर्विज इवा मिनाति श्रदस्मै धत्त सजनास इन्द्रः इति स किं वदति इति चेत् इन्द्रः नास्ति इति केचन वदन्ति वस्तुतः इन्द्रः अस्ति इति तस्य विषये श्रद्धां कुर्वन्तु इति अत्र वदति श्रदस्मै ददत
आक्चुलि इन्द्रः इति एकपुरुषः वा अथवा पदवी मर्यादा
पुराणेषु इन्द्रः काचित् पदवी इति उच्यते अथवा किञ्चित् स्थानम् इति उच्यते पुराणे इतिहासयोः तथा अस्माभिः श्रूयते परन्तु अत्र वेदे तावद् सा एका देवता इत्येव श्रूयते स्थिरम् एकस्याः एव देवतायाः स्तुतिः अनन्तरं बलपराक्रमादि विषयाणां प्रतीकभूत देवतास्वरूपम् इन्द्रः तावत् परिगृह्यते। अत्र तादृश पदविभागः किमपि नास्ति, एषा पदे अस्ति पुनः चवते पुनः अन्यः तत्स्थाने आगच्छति इत्यादि न श्रूयते।
एवमेव ब्रह्मा अग्निः सर्वे
सर्वेपि एकैक देवता विशिष्य किं भवति इति चेत् उपनिषत्सु इन्द्रः परमात्मत्वेनैव उच्यते। इन्द्रो मायाभिः पुरुरूपीयते इति, इन्द्रः एव परमात्मा इत्यादि श्रूयते। अनन्तरं पुनश्च उपनिषत्सु इन्द्रः आत्मज्ञाः ये भवन्ति तेषु प्रधानः इत्यपि, नाम इन्द्रविरोचनसंवादः एवं नाना असुराणां मध्ये यदा संवादः भवति इन्द्रः शीघ्रम् आत्मानं जानाति वेत्ति इत्यादिरूपेणापि उपनिषत्सु प्रतिपादनं दृश्यते विशिष्य केनोपनिषत् अस्तु। अनन्तरम् इदानीं अत्र पञ्चमः मन्त्रः घोरं, घोरमिति पदमस्ति द्वितीयपादे, घोरं यं पृच्छन्ति, घोरं यं पृच्छन्ति स्म कुहसेति, पूर्वतनपादः पूर्णम् अस्ति अत्र। घोरं यं पृच्छन्ति स्म कुहसेति, स इन्द्रः कुत्र वर्तते इति, नाम इन्द्रः घोरः शत्रूणां घातकः, तं पृच्छन्ति सः कुत्र अस्ति भोः इति पृच्छन्ति। अनन्तरं उत इममाहुः नैष अस्ति इत्येनं, प्रथमं पृच्छन्ति एषा घोर इन्द्रः इन्द्रः इति भवान् कथयति सः कुत्र अस्ति इति पृच्छन्ति। एनम् इन्द्रम् आहुः एषः इन्द्रः न अस्ति इति, तादृशः कोऽपि नास्ति काल्पनिकः एव इति। एनम् आहुः यं स्म पृच्छन्ति कुहसेति घोरम् उतेमाहुः नैषो अस्ति इत्येनं, न एषः अस्ति एषः नास्ति इति वदन्ति। तर्हि अस्ति वा नास्ति वा इति प्रश्नः। सः इन्द्रः विज इव, सः इन्द्रः विज इव, अत्र विज इव इत्यस्ति किल, सः हर्यः पुष्टिर्विज इव इत्यस्ति तृतीयपादे, तत्र कानि पदानि इदानीं स्वीकर्तव्यानि, सः विज इव, सः इव इत्यत्र, अत्र इव शब्दः एव अर्थे स्वीकरणीयः। तर्हि कोऽर्थः, उद्वेजकः एव, नाम सः अस्ति इति प्रथमं, न केवलं तावत् सः उद्वेजकः अपि, नाम उद्वेगदाता अपि, सः अस्ति वा नास्ति वा इति प्रथम आरम्भे सन्देहः आसीत्, सः वस्तुतः अस्ति एव, सः उद्वेगजनकरूपेण अस्ति एव। अनन्तरं किं करोति, अर्यः पुष्टिः, अर्यः नाम शत्रोः इत्यर्थः, पुष्टिः तस्य शत्रुसम्बद्धानि, नाम शत्रोः गवाश्वादीनि धनानि यानि सन्ति, आमिनाति, इवामिनाति इत्यस्ति किल, सः आमिनाति, तद् सर्वतः हिनस्ति, सर्वमपि नाशयति सः इति। तर्हि कः अर्थः, प्रथमम् इन्द्रः अस्ति वा नास्ति वा, केचन वदन्ति इन्द्रः नास्ति इति, परन्तु सः वस्तुतः अस्ति, उद्वेजकः उद्वेगजनकरूपेण सः अस्ति, अनन्तरं सः शत्रूणां धनादिकमपि सः आमिनाति नाशयति इत्यर्थः। अनन्तरं तर्हि किं करणीयम्, एतादृशः इन्द्रः अस्ति इति, श्रदस्मै इन्द्राय धत्त, श्रदस्मै धत्त, अस्मै नाम इन्द्राय, श्रद्धत्त इति अन्वयः करणीयः, एषः अस्ति इति विश्वासं कुरुत। यद्यपि असौ विशेषतः अस्माभिः न दृश्यते तथापि अस्ति इति विश्वासं कुरुत इति।
श्रद्धत्त इत्युक्ते
श्रद्धां कुर्वन्तु, कदाचित् भवतः दृष्टिपात्रं न स्यात् परन्तु सः अस्ति एव, तद्विषये श्रद्धां कुर्वन्तु। एवं निर्धारणीयमहिमोपेतः सः इन्द्रः न अहम् इति। अग्रे यो रथस्य चोदिता यः कृशस्य यो ब्रह्मणो नाधमानस्य कीरेः युक्तग्रावणो योगिता सुशिप्रः सुतसोमस्य स जना स इन्द्रः। यो रथस्य रथस्य इति शब्दस्य यः इन्द्रः रथस्य समृद्धस्य समृद्धस्य चोदिता समृद्धस्य धनानाम् इत्यर्थः समृद्धियुक्तधनानां चोदिता प्रेरयिता समृद्धं धनं ददाति सः तादृशः। अनन्तरं यः कृशस्य कृशः कृशः नाम दरिद्रः दरिद्रः सन् नाधमानस्य नाधमानस्य नाम यः याचमानस्य कश्चन कृशः दरिद्रः अस्ति पुनः नाधमानः अपि अस्ति याचमानः अपि अस्ति किमपि आवश्यकम् इति ब्राह्मिन् इत्यस्ति वा पश्यामः अत्र कः अर्थः इति सः कृशस्य दरिद्रस्य नाधमानस्य याचमानस्य स्तोतुः ब्रह्मणः कश्चित् ब्राह्मणः अस्ति सः कीर्तयति अपि नाम इन्द्रस्य कीर्तिं करोति परन्तु सः कृशः अस्ति तादृशस्य कृते सः रथस्य चोदिता धनस्य दाता अस्ति।
कीरे इत्युक्ते कीर्तिं
यः कृशस्य कीरेः इति अन्वयः तेन सह कीर्तनं कुर्वतः कृशस्य कृशः कश्चित् ब्राह्मणः अस्ति सः कीर्तनमपि करोति नादमानः अपि अस्ति नाम आवश्यकं किमपि अपेक्षितम् इति याचमानः अपि अस्ति तादृशस्य सः रद्रस्य चोदिता धनस्य दाता प्रेरयिता। अनन्तरं यश्च सुशिप्रः सुशिप्रः शोभनहनुः तस्य हनुः शोभनम् अस्ति हनुः अथवा सुशीर्षकः वा अथवा तस्य शिरः प्रदेशः एव सुन्दरः अस्ति सुशिप्रः सः इन्द्रः। अनन्तरं युक्तग्रावणः युक्तग्रावणः सुतसोमस्य तत्ते तयोः अन्वयः अस्ति यः सुशिप्रः इति पृथक् युक्तग्रावणः सुतसोमस्य इति द्वयोः सम्बन्धः। युक्तग्रावणः इति चेत् उद्यतग्रावणः ग्रावा नाम कल् किमर्थं तत् शिला स्वीक्रियते इति चेत् सोमस्य पीडनार्थं नाम सोमलता भवति ततः सारस्य ग्रहणार्थम् अभिपवार्थम् इति अस्ति। यः यजमानः युक्तग्रावा अस्ति नाम हस्ते शिलाखण्डं स्वीकृतवान् सोमरसनिष्पीडनार्थम्। अनन्तरं सुतसोमस्य अनन्तरं यश्च यजमानः सोमं सुतवान् नाम ततः सारं निष्पीडितवान् तादृशस्य एषः इन्द्रः किं करोति यः अविता अविता नाम रक्षिता इत्यर्थः एषः रक्षिता सोमस्य एषः अधिपतिः न तर्हि कः अर्थः अस्य मन्त्रस्य यः दीनस्य याचमानस्य कस्यचन ब्राह्मणस्य गायकश्च ब्राह्मणस्य गायकः ब्राह्मणः समृद्धं ददाति धनादिकम् अनन्तरं यः यागादिकर्मरथं सोमादि किं रसनिष्पादनार्थं सिद्धं यजमानमपि एषः रक्षति तादृशः इन्द्रः सः पुनः सुशीर्पकः सुशीर्षकः तस्य सुन्दरशिरोयुक्तः तादृशं तादृशः इन्द्रः अहं तु न इति यस्य अश्वासः प्रदिशि यस्य गावो यस्य ग्रामाः यस्य विश्वे रथासः स यः सूर्यं य उषसं जजान यो अपां नेता स जनाः स इन्द्रः सरलः एव मन्त्रः एषः एतत् सर्वमपि तस्यैव इति यस्य सर्वान्तर्यामितया वर्तमानस्य प्रदिशि प्रदिशि नाम अनुशासने अश्वासः अश्वाः वर्तन्ते नाम यथा जनासः इत्यस्ति जनाः इति एवमेव अश्वासः इति चेत् अश्वाः इत्येव अर्थः अतः यस्य इन्द्रस्य प्रदिशि नाम अनुशासने सर्वे अश्वाः वर्तन्ते पुनः यस्य गावः यस्य अनुशासने गावः वर्तन्ते सर्वाः अपि गावः यस्य अनुशासने ग्रामाः वर्तन्ते अनन्तरं यस्य आज्ञायां विश्वे सर्वे अपि रथासः रथाः वर्तन्ते अश्वासः रथासः जनासः इत्यादिकम् अनन्तरं यश्च सूर्यं यश्च उषसं सूर्यं जजान वृत्रं हत्वा सूर्यं जनयामास वृत्रः सूर्यं परितः संवृतवान् सूर्यस्य प्रकाशं निरुद्धवान् वृत्रः तं वृत्रं मारयित्वा एषः सूर्यं जजान उत्पादितवान् सूर्यस्य प्रकाशं जनितवान् उषसम् उषस्य शब्दस्य वयं जानीमः उषःकालः इति भवति सूर्योदयात् पूर्वं डान् इति उच्यते अतः तस्यां डस्क् उषःकालः न भवति सर्वदापि प्रत्यूषः इति चेत् प्रातः प्रातःकाले डान् इत्येव भवति अतः यः उषसं जजान सूर्यं च जजान उत्पादितवान् सूर्यम् उषसञ्च यः उत्पादितवान् अनन्तरं यः अपां नेता एतद् वयं दृष्टवन्तः एव सः जलस्य प्रेरकः इत्यर्थः अपां जलस्य नेता प्रेरकः सः एव इन्द्रः इति अग्रिमः मन्त्रः यन् क्रन्दसि संयति विश्वयेते परे अवर उभया अमित्राः समानं चिद्रथमातस्थिवांसा नानाहवेते स जनास इन्द्रः यन् क्रन्दसि संयति विह्वयेते पश्यामः क्रन्दसि क्रन्दसि इति चेत् कः अर्थः रोदसि शब्दं कुर्वाणे मानुषी दैवी च द्वे सेने इति तत्र क्रन्दसि शब्देन मानुषी सेना दैवी सेना च इत्येतद्वयं सूच्यते तत्र किं द्वयोः सेनयोः महान् कलहः अस्ति द्वयोर्मध्ये महान् कोलाहलः शब्दः श्रूयते संयति संयति नाम परस्परं सङ्गच्छन्त्यौ परस्परम् अभिमुखीभूय युद्धार्थं दैवीसेना मानुषीसेना च आगच्छन्त्यौ स्तः तत्र विह्वयेते विह्वयेते नाम आह्वयतः इति दैवीसेना वा भवतु मानुषीसेना वा भवतु द्वे अपि सेने यमेव आह्वयेते इन्द्रमेव आह्वयन्ति ओ इन्द्रः एव अस्माकं रक्षकः भवतु इति दैवीसेनापि आह्वयति मानुषीसेनापि आह्वयति यं क्रन्दसि संयति विह्वयेते अनन्तरं परे अवरे उभयाः अमित्राः परे नाम श्रेष्ठाः उत्कृष्टाः अवरे अधमाः यः कोऽपि उत्तमः वा भवतु अधमः वा भवतु स्वरक्षार्थम् इन्द्रमेव आह्वयति इत्यर्थः उभयाः उभयविदाः अपि अमित्राः शत्रवः युद्धं नाम सः इन्द्रः एव आहूयते सः कश्चित् उत्कृष्टः वा भवतु अधमः वा भवतु किमपि उद्देश्यं भवतु रक्षणार्थं सर्वेपि जनाः इन्द्रमेव आह्वयन्ति इति परे अवरे उभया अमित्राः समानं समानं रथम् आतस्थिवांसौ आतस्थिवांसा इत्यस्ति आतस्थिवांसौ समानं इन्द्ररथसदृशं रथम् आस्थितौ, नाम तादृशे रथे रथे उपविष्टौ, समानं चिद्रथम् आतस्थिवांसौ द्वौ रथिनौ, नाम सेनास्तरेऽपि भवतु वैयक्तिकस्तरेऽपि भवतु, एषः एकस्मिन् रथे उपविशति रथी, अन्यः रथी एकस्मिन् रथे उपविशति, परस्परं यदा युद्धार्थम् आगच्छतः उभावपि इन्द्रमेव आह्वयेते, सेनास्तरेऽपि वैयक्तिकस्तरेऽपि एवमेव भवति, तमेव इन्द्रं समानं चिद्रथम् आतस्थिवांसौ हवेते, नाम आह्वयन्ति इत्यर्थः। नाना पृथक् पृथक्, एषः अपि आह्वयति सः अपि आह्वयति उभावपि, अतः युद्धं वा भवतु देवानां युद्धं वा भवतु मनुष्याणां युद्धं वा भवतु श्रेष्ठानां मध्ये युद्धं वा भवतु कनिष्ठानां मध्ये युद्धं वा भवतु, एकः रथी अस्मिन् पार्श्वे अपरः रथी तस्मिन् पार्श्वे, युद्धं नाम एष एव आहूयते रक्षणार्थम्। नवमः, सः इन्द्रः अहं न, यस्मान्न ऋते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत् सः जना सः इन्द्रः इति। तु सरलमस्ति, यस्मात् ऋते जनासः न विजयन्ते, नाम येन विना यस्य अनुग्रहेण विना जनासः जनाः न विजयन्ते विजयं न प्राप्नुवन्ति, यस्य अनुग्रहेण विना जनाः विजयं न प्राप्नुवन्ति, यं युध्यमाना अवसे हवन्ते ऋतेन विना इत्यर्थः। लोकेऽपि ऋते प्रयोगः अस्ति, तस्माद् ऋते इति तेन विना इत्यस्मिन् अर्थे विना अर्थे ऋते शब्दप्रयोगः भवति। अतः किं कुर्वन्ति जनाः, जनाः जानन्ति तस्माद् इन्द्रात् विना इन्द्रेण विना जयः न भवति, अतः किं कुर्वन्ति युध्यमानाः जनाः युद्धं कुर्वन्ति यदा जनाः अवसे स्वरक्षणाय, अवनं नाम रक्षणं, यं हवन्ते इन्द्रमेव आह्वयन्ति इन्द्रमेव आह्वयन्ति। अनन्तरं यो विश्वस्य प्रतिमानं बभूव, यः विश्वस्य प्रतिमानं प्रतिनिधिः, विश्वस्यैव सः प्रतिनिधिः, समग्रं विश्वं तस्मिन्नेव अस्ति निहितमस्ति, एषा स्तुतिः इन्द्रस्य। ओ भवानेव उच्यते किल लोके अपि त्वं ब्रह्मा त्वं विष्णु त्वमिन्द्रः इत्यादि नानास्तुतिः उच्यते किल, तस्य तया दृष्ट्या इदमुक्तं, सः विश्वस्यैव प्रतिनिधिः अस्ति सः प्रतीकभूतः अस्ति। अनन्तरं सः अच्युतच्युत्, सः कीदृशः, अच्युतानां क्षयरहितानां पर्वतादीनां चावयिता, नाम सामान्यतः पर्वताः अच्युताः नाम कम्पितुं न शक्यन्ते, तादृशान् पर्वतानपि एषः कम्पयितुं शक्नोति, तादृशः पराक्रमः तादृशं बलमस्ति तस्मिन्। अतः वयम् अस्मिन् पुनः पुनः इदमेव दृश्यते अस्माभिः, पराक्रमस्य स्वरूपं, पराक्रमस्य काचित् देवता अस्ति चेत् सः इन्द्रः एव, स जना स इन्द्रः, अथवा एषा गृत्समदः असुराणां मनसि भयम् उत्पादयति, तादृशः इन्द्रः तस्य अन्वेषणं न कुर्वन्तु इति, भवतामेव हानिः भवति,
एतत् बालि अपि इन्द्रस्य
बलमेव प्राप्तवान् इति सत्यम्। यः अग्रिममन्त्रः दशमः, यः शश्वतो मह्येनो दधानाम् अन्याम्, यः शश्वतः महि एनः दधानान् अमन्यमानान् शर्वा जघान, यः शर्धते न अनुददाति श्रुध्यां, यः दस्योः हन्ता स जना स इन्द्रः। यः महि एनः दधानान् शश्वतः शर्वा जघान इत्यस्ति, यः महि एनः दधानान् शश्वतः अमन्यमानान् शर्वा जघान यः इन्द्रः महि एनः नाम महत्पापं दधानान् शश्वतः बहून् अमन्यमानान् आत्मानमजानन्तः इन्द्रमपूजयन्तः वा जनान् एषः इन्द्रः किं करोति बहवः तादृशाः सन्ति ये महत्पापं कृतवन्तः अनन्तरं ते इन्द्रः अस्ति इत्यपि अमन्यमानाः इन्द्रस्य अस्तित्वे तेषां विश्वासः अपि नास्ति तादृशान् जनान् यः महि एनः दधानान् शश्वतः अमन्यमानान् तादृशान् जनान् किं कृतवान् इन्द्रः इति चेत् शर्वा नाम वज्रायुधम् इत्यर्थः शर्वा शब्दस्य वज्रायुधम् इत्यर्थः शर्वा जघान सः तेषाम् उपरि वज्रायुधस्य प्रयोगं कृतवान् इति जघान मारितवान् ये पापिनः जनाः ये च इन्द्रस्य अस्तित्वं नाङ्गीकुर्वन्ति जनाः तादृशानां जनानाम् उपरि वज्रायुधस्य प्रयोगं कृतवान् इन्द्रः अनन्तरं यः शर्धते श्रुद्ध्यां नानुददाति यः शर्धते उत्साहं कुर्वते अनात्मज्ञाय जनाय शर्धते शब्दस्य अत्र कः अर्थः इति चेत् कश्चित् अनात्मज्ञः अस्ति कश्चित् अनात्मज्ञः जनः अस्ति सः शर्धते इति शब्देन उल्लिख्यते
अनात्मज्ञः
यस् सत्यम् अनात्मज्ञः इत्यत्र पूर्वोक्तप्रकारेण यः इन्द्रं न मनुते इत्यपि अर्थः यः इन्द्रस्य अस्तित्वे विश्वासं न करोति तादृशः अपि अत्र शर्धते इति पदेन एतत् अथवा यः आत्मानं न जानाति इत्यर्थः अपि स्वीकर्तुं शक्यते शर्धते जनाय तादृश आत्मज्ञानरहिताय अथवा इन्द्रस्य महत्त्वं न स्वीकुर्वतः जनाय श्रुद्ध्याम् उत्साहनीयं कर्म तस्य यथा उत्साहः भवेत् तादृशं कार्यं न ददाति न प्रयच्छति कश्चित् उत्साहसम्पन्नः किन्तु सः इन्द्रं नाङ्गीकरोति अथवा सः आत्मानमेव नाङ्गीकरोति तादृशाय जनाय तस्य उत्साह तस्य यथा उत्साहः भवेत् तादृशं कार्यं न तादृशजनानां प्रोत्साहनम् एषः न करोति ये यतोहि ये अनात्मज्ञाः ते किमस्ति केके च आत्महनोज असुर्या नामते लोका अन्धेन तमसावृताः तांस्ते प्रेत्याभिगच्छन्ति ये के च आत्महनोजनाः इति ईशावास्य अस्ति ये आत्मानमेव न जानन्ति तेषां हस्ते किमपि दद्मः चेत् तद् अपायकरं भवति अतः तेषां हस्ते किमपि न दातव्यम् इति
तेन दैत्यानामपि
तदेव अर्थः नाम ये मेटीरियलिस्टिक् भवन्ति किञ्चित् शाश्वतं तत्त्वम् अस्ति इति ये न जानन्ति तेषां हस्ते विद्यमानं सैन्स् यदस्ति तद् बहु डेञ्जरस् भवति समान अर्थः अत्र प्रायः उक्तः अस्ति तादृशेभ्यः अनुग्रहं न करोति इन्द्रः ये आत्मानं न जानन्ति इति अनन्तरं यः दस्योः हन्ता दस्युशब्दस्य पुनः उपक्षपयिता इत्येव अर्थः यः नाशकः अस्ति ये घातकाः सन्ति तेषां सर्वेषां निवारकः एषः सः इन्द्रः एकादशः मन्त्रः यः शम्बरं पर्वतेषु क्षियन्तं चत्वारिंश्यां शरद्यन्वविन्दत् भोजायमानं यो अहिं जघान धनुं शयानं स जना स इन्द्रः यः पर्वतेषु क्षियन्तम् इन्द्रभिया बहून् संवत्सरान् प्रच्छन्नः भूत्वा पर्वतगुहासु निवसन्तं कश्चित् शम्बरनाम असुरः शम्बरम् इत्यस्ति सः शम्बरः किं कृतवान् को इन्द्रः इति कश्चन अस्ति सः मां पीडयति इति मत्वा सः पर्वतगुहायां गत्वा आत्मानं रक्षितवान् किं कृतवान् तादृशः सः मायावी अपि अस्ति. चत्वारिंश्यां शरदि, चत्वारिंशे संवत्सरे, 40th year, प्रायः यदा सः आत्मानं रक्षितवान् ततः 40 वर्षाणि इति प्रायः स्यात्. अन्यत् किमपि तत्र उल्लेखः न दृश्यते. 40 तमे वर्षे सः किं कृतवान्, अन्वविन्दत् प्राप्तवान्. 40 वर्षाणि अन्विष्य सः शम्बरः कुत्र अस्ति इति इन्द्रः प्राप्तवान्. अनन्तरं लब्ध्वा च यः ओजायमानम्, ओजायमानं नाम बलमाचरन्तम्, अत्यन्तं बलयुक्तः आसीत् सः. बलमाचरन्तम् इत्यर्थः ओजायमानम्. अहिं, सः शम्बरः ओजायमानः आसीत्, आत्मानं रक्षितवान् कुत्रापि गुहायां. तम् अन्विष्य अन्विष्य 40 वर्षानन्तरं प्राप्तवान् इन्द्रः. यदा च प्राप्तवान् सः शम्बरः कीदृशः आसीत्, ओजायमानः आसीत्, बलयुक्तः आसीत्. अनन्तरम् अहिः आसीत्, अहिं नाम, परन्तु सः अहन्ता आसीत्, नाम युद्धार्थं तु न आगतः आसीत्, यतोहि सः भयेन अस्ति. अतः अहिं दानुं, दानुं नाम दानवं, सः तु वस्तुतः नाशयिता एव, उपक्षपयिता एव. शयानं, शयानः आसीत् सः, आत्मानं गोपयित्वा सः शयानः आसीत्, जघान हतवान् इति. शम्बरो नाम असुरः, आत्मानं गो बलयुक्तः किन्तु इन्द्रभयेनापि युक्तः, तादृशम् अन्विष्य सः मारितवान् इति.
शयानम् इत्युक्ते सः स्वप्तुम् आसीत्,
शयानः आसीत् कुत्रचित् स्वापं कुर्वन् आसीत्, नाम आत्मानं सः तत्र गुहायां रक्षितवान् आसीत्, शयनं कुर्वन् आसीत् सः.
दानुम्
इत्युक्ते दानवः इत्यर्थः, दानुं दानवं, वस्तुतः नाम सः बहिः न आसीत् चेदपि तस्य दानवस्वभावः अस्त्येव इत्यर्थः. अन्यान् न पीडयति चेदपि तस्मिन् तादृश पोटेन्शियल् अस्त्येव. द्वादशः मन्त्रः, यः सप्तरश्मिः वृषभः तुविष्मान् अवासृजत् सत्तवे सप्तसिन्धून्, यो रौहिणम् अस्फुरत् वज्रबाहुः उद्याम् आरोहन्तम् स जनास इन्द्रः. अत्र यः सप्तरश्मिः, सः इन्द्रः सप्तरश्मिः. अत्र रश्मिशब्दस्य कः अर्थः इति चेत् सप्तपर्जन्ययुक्तः इत्यर्थः. पर्जन्य इत्युक्ते जलदातारः मेघाः इत्यर्थः. सप्तप्रकारक मेघयुक्तः इत्यर्थः. जलदात्
सिल्क्
रश्मिशब्दस्य सामान्यतः किरणम् इति अर्थः भवति. नार्मल् मीनिङ्ग् लभातमपि न, इट् मीन्स् रेस्. तत्र किम् अस्ति आङ्ग्लभाषायां,
मैटी सेवेन् रेन्ड् बुल् who let loose the seven streams to flow.
Atra atrapi kinchi samanam eva dattam asti. Atra parjanyah itiva arthah, meghah ityarthah. Sapta sankhyakaah parjanyah meghah. Tadrisha sapta sankhyakaah. Atra rashmi shabdasya meghah iti sandarbhikah arthah. Esha indrasya murtihi asti chet ततः याः रश्मयः आगच्छन्ति, काः ताः रश्मयः, सप्तपर्जन्याः एव, यतो हि सः पर्जन्यसम्बद्धः एव देवः. अतः तेषां नाम अपि अस्ति, वराह वराहव स्वतपसः विद्युन्मः स्वरूपयः श्वापयोग्रह मेधाश्चेत् एते ये चे मेषि विद्विषः पर्जन्या सप्त पृथिवीमभिवर्षन्ति इति तैत्तिरीय आरण्यके अस्ति. सप्त वृष्टिमेघानां नामानि अत्र सन्ति. अस्तु, अनन्तरम् एषः सप्तरश्मिः सप्तसङ्ख्याकपर्जन्ययुक्तः वृषभः वर्षकः, न केवलं जलं धरति अपि तु जलं ददात्यपि, वर्षकः अपि अस्ति वृषभः. तुविष्मान्, तुविष्मान् वृद्धिमान् वर्धते अपि न क्षीयते. सामान्यतः मेघः जलं ददाति चेत् क्षीयते, तत्र मेघे किमपि न भवति, जलं सर्वम् अधः आगच्छति. परन्तु एषः पर्जन्यानां नायकः सन् सर्वदापि वृद्धिमान् बलवान् एव भवति इति. अनन्तरं यः सप्तरश्मिः वृषभः तुविष्मान् सर्तवे अवासृजत् सप्तसिन्धून्, सप्तसिन्धून् नाम सप्त नद्यः, सप्तनदीनां सर्तवे नाम सप्तापि नद्यः यदि प्रवहेयुः तर्हि तेन जलं मोक्तव्यं, जलं दातव्यं किल. अतः सप्तसिन्धूनां सप्तनदीनां सर्तवे प्रवाहाय अवासृजत् सः विसर्जनं कृतवान् नाम जलस्य प्रदानं कृतवान् इत्यर्थः.
सर्तवे इत्युक्ते विसर्जनं,
सर्तवे इति चेत् सरणाय, प्रवाहाय. केषां प्रवाहाय? सप्तसिन्धूनां, सप्तसङ्ख्याकनदीनां सर्तवे प्रवाहाय किम् आवश्यकम्? सप्तसङ्ख्याकनदीनां प्रवाहाय सर्तवे किम् आवश्यकं? जलम् आवश्यकम्. सः कः जलं ददाति? इन्द्रः अवासृजत् नाम विसृष्टिं कृतवान् सः, वृष्टिरूपेण जलं विमोचितवान् इत्यर्थः. अनन्तरम् एषः किं कृतवान्? यः वज्रबाहुः अस्ति अत्र, यः रौहिणम् अस्फुरद् वज्रबाहुः इति, यः वज्रबाहुः इन्द्रः नाम यस्य बाहौ वज्रं वज्रायुधमस्ति सः वज्रबाहुः, द्याम् आरोहन्तं, द्यां स्वर्गलोकं प्रति कश्चित् गच्छन् आसीत् कः? रौहिणं, रौहिणः इति कश्चन असुरः, तम् अस्फुरत् जघान, तं मारितवान्. तर्हि यः वृष्टिप्रदाता, यः नदीनां जलप्रवाहाय जलदाता अस्ति, यः च रौहिणं नाम असुरं यः स्वर्गलोके बाधां जनयितुम् आरोहणं कुर्वन्नासीत् वज्रहस्तेन यः मारितवान् तं, तादृशः इन्द्रः अहं न. त्रयोदशः मन्त्रः. द्यावाचिदस्मै पृथिवी नमेते, सुष्माच्चिदस्य पर्वता भयन्ते, यः सोमपा निचितो वज्रबाहुः, यो वज्रहस्तः स जनास इन्द्रः. बहु सरलमस्ति. अस्मै द्यावाचिदस्मै पृथिवी नमेते इत्यस्ति, अस्मै इन्द्राय द्यावा पृथिवी नाम भूलोकः स्वर्गलोकः च आकाशः भूमिः च, नमेते नमस्कुरुतः इत्यर्थः. एतस्य बलं दृष्ट्वा पराक्रमं दृष्ट्वा भूलोकः स्वर्गलोकः च नमस्कुरुतः इति. द्यावाचिदस्मै पृथिवी नमेते, सुष्माच्चिदस्य पर्वता भयन्ते, चिदपि अस्य अस्य इन्द्रस्य सुष्मात् बलात् पर्वताः भयन्ते, विशेषेण पर्वतानां भयं भवति, यतोहि तेषां पक्षान् कर्तितवान् किल, अतः पर्वता भयन्ते. यः सोमपा, सोमस्य पाता नाम यागे सोमः यः दीयते तस्य सः स्वीकर्ता इत्यर्थः. निचितः, निचितः दृढाङ्गः, अत्यन्तं दृढानि अङ्गानि यस्य सः, निचितः वज्रबाहुः ज्ञातमेव, वज्रसदृशबाहुः इत्यर्थः, नाम वज्रं बाहौ यस्य सः इति न, तस्य बाहुः एव वज्रसदृशः अस्ति. वज्रं नाम डायमण्ड् इति अर्थः भवितुमर्हति. यतोहि किमर्थं तथा अर्थः दत्तः? वज्रबाहुः वज्रहस्तः इत्यपि अस्ति, द्वयमपि अस्ति. तर्हि वज्रबाहुः वज्रहस्तः द्वयोः मध्ये भेदः कल्पनीयः. तर्हि प्रथमं यस्य बाहुः एव वज्रसदृश दृढता युक्त युक्ता अस्ति सः प्रथमः अर्थः. वज्रहस्तः नाम यस्य हस्ते वज्रायुधम् अस्ति सः इति, सः इन्द्रः इति. 14 चतुर्दशः मन्त्रः, उपान्त्यः. यः सुन्वन्तमवति, यः पचन्तं, यः शंसन्तं, यः शशमानम् ऊती, यस्य ब्रह्म वर्धनं, यस्य सोमः, यस्येदं राधः, स जनाः स इन्द्रः. यः सुन्वन्तम् अवति यः सोम सोमस्य रसं करोति नाम यागे दातुं तादृशं यजमानं रक्षति अनन्तरं यः पचन्तं पाकं करोति किमर्थं पुरोडाशादिकं नाम हविः दातव्यं किल यागे यागे सोमस्य सारः अर्प्यते सः तादृश सोमसार अर्पणार्थं यः प्रयत्नं करोति सः सुन्वन्तम् इति पदेन सूच्यते पाकमपि पाकः अपि करणीयः तत्र नानाविधहविषः समर्पणाय अतः पुरोडाशादि हविषां समर्पणाय यः पाकं करोति अनन्तरं यः ऊति यः शशमानम् ऊति किमस्ति यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं शंसन्तं नाम यः स्तुतिं कुर्वन्तं स्तुतिं कुर्वन्तं एते सर्वे कश्चित् किं सोमरसं करोति कश्चित् पाकं करोति कश्चित् स्तुतिं करोति शशमानः शशमानः इत्युक्ते कः अर्थः स्वरक्षायै शस्त्राणि शंसन्तं हा शस्त्राणि शंसन्तं शशमानं शंसन्तं शशमानम् उभयमपि समानार्थकमेव अत्र तत् किं दत्तमस्ति आङ्ग्ले आङ्ग्ले किमस्ति अत्र विशेषेण भेदः न कल्पितः शंसन्तं शशमानम्
वित् हिस् एट् हेल्प्स् हिम् दट् ड्रेसेस् सोमा हिम् दट् बेक्स् हिम् दट् आफर्स् प्रेस् हिम् दट् हेस् प्रिपेर्ड् द सेक्रिफैस् हूम् प्रेयर्
तत्रैव शंसन्तं शशमानम् इत्यनयोः भेदः न दत्तः प्रत्ययान्तरमेव
स्तुतिं करोति ऊति
न ऊतिः इत्यस्य वदामि नाम सुन्वन्तं पचन्तं शंसन्तं शशमानम् इति एते चत्वारः सन्ति चतुर्विधाः जनाः चतुर्विधा भजन्ते माम् इति अस्ति किल एवमत्र चतुर्विधाः भक्ताः उक्ताः कश्चित् सोमरसं करोति कश्चित् पाकादिकं करोति कश्चित् शंसनं करोति नाम स्तोत्रं करोति इत्यर्थः शशमानम् इत्यस्यापि स एव अर्थः प्रायः शंसन्तम् इत्यत्र शत्रुप्रत्ययः दृश्यते शशमानम् इत्यत्र शानचप्रत्ययः दृश्यते स्तोत्रं करोति इत्येव अर्थः किमर्थम् एते सर्वेपि एते चतुर्विधाः जनाः स्तोत्रं कुर्वन्ति ऊति नाम स्वरक्षार्थम् इति यतो इन्द्रः रक्षकः एव किल ऊति स्वरक्षायै एते सर्वेपि किं कुर्वन्ति एतादृशानि कार्याणि कुर्वन्ति शंसन्तं शशमानं सुन्वन्तं पचन्तम् इत्यादि अनन्तरं यस्य ब्रह्मवर्धनं यस्य ब्रह्मवर्धनं यस्य सोमो इति ब्रह्म यस्य स्तोत्रं वर्धनं वृद्धिकरं भवति अत्र ब्रह्मशब्दस्य स्तोत्रम् इत्यर्थः यस्य स्तोत्रं वृद्धिकरं भवति वृद्धिप्रदं भवति अनन्तरं यस्य सोमः यस्य कृते समर्प्यमाणः सोमः वृद्धिहेतुः भवति तस्य स्तुतिः वा भवतु तदर्थं क्रियमाणहविस्समर्पणं वा भवतु सर्वमपि वृद्धिमेव ददाति न क्षयम् इति यस्य ब्रह्मवर्धनं यस्य सोमः च वर्धनं भवति यस्य इदं राधः इदम् अस्मदीयम् अस्माभिः यद् राधः पुरोडाशादिलक्षणम् अन्नं राधशब्दस्य अन्नम् इत्यर्थः
केवलं यज्ञविषयस्य अन्नं
वा यज्ञसम्बद्धान् सत्यम् अत्र अतः यस्य ब्रह्मवर्धनं यस्य विषये क्रियमाणं स्तोत्रं वर्धनमेव ददाति यस्य कृते समर्प्यमाणः सोमः वर्धनमेव ददाति यस्य विषये इदम् अन्नं पच्यते तद राधः तदपि वर्धमानमेव भवति सः इन्द्रः यस्य कृते जनाः एतत् सर्वं कुर्वन्ति सः इन्द्रः मदर्थं जनाः किमपि न कुर्वन्ति इन्द्राय एव एतत् सर्वं कुर्वन्ति इति अन्तिमः मन्त्रः यः सुन्वते पचते दुध्र आ चिद्वाजं ददर्शि स किलासि सत्यः वयन्त इन्द्र विश्वः प्रियासः सुवीरासो विदथाम विदथमावदेम इति अन्ते हे इन्द्र यः दुध्रः सुन्वते पचते वाजं ददर्शि सत्यः असि यः इति पदमस्ति यः सुन्वते इत्यस्ति यः इन्द्रः दुध्रः इन्द्रः कीदृशः दुध्रः दुर्धरः इन्द्रः दुर्धरः दुर्धरः नाम वेरि डिफिकल्ट् टु कण्टेन् तादृशः सः अन्कण्ट्रोलबल् इत्यर्थः दुर्धरः वेरि डिफिकल्ट् टु मेनेज् इन्द्रः दुध्रः सः किं करोति सुन्वते यः सोमसमर्पणं करोति सोमस्य समर्पणं करोति अनन्तरं पचते यः अन्नं पुरोडाशम् इत्यादि पुरोडाशादिकं यः पचति अनन्तरं वाजं वाजम् इत्युक्ते अत्र अन्नं सो सुन्वते सोमं यः ददाति पचते पुरोडाशादिहविः यः ददाति वाजम् अन्नं च यः ददाति आददर्शि आददर्शि इत्युक्ते यः प्रापयति आददर्शि भृशं प्रापयति प्रापयसि एवमर्थः एवमर्थः सुन्वते पचते यः सोमं समर्पयति यः पाकं च करोति तस्मै वाजम् आददर्शि तस्मै भवान् अन्नं ददाति इत्यर्थः
अन्नं प्रापयसि
त्वं भवते जनाः सोमं समर्पयन्ति भवते जनाः पाकं कुर्वन्ति हविसमर्पणं कुर्वन्ति तेभ्यः भवान् किं प्रापयसि त्वं किं प्रापयसि वाजं प्रापयसि वाजम् इति शब्दस्य अत्र बलम् इत्यपि अर्थः दत्तः भवान् अन्नं ददाति भवान् बलं वा ददाति यः सुन्वते पचते दुध्र आचिद् वाजं ददर्शि सः भवान् भवान् तादृशः सः सत्यः असि भवान् तादृशः वस्तुतः अस्ति भवान् यथार्थभूतः अस्ति यथार्थभूतः अस्ति न पुनः नास्ति इति बुद्धियोग्यः असि जनाः भवन्तं नास्ति इति न वदेयुः यतोहि यः भवते हविस्समर्पणं करोति तेभ्यः भवान् वाजं नाम अन्नं वा बलं वा अवश्यं प्रापयति एव अतः वयं ते इति अस्ति किल तत्र ते प्रियासः सुवीरासः वयं ते प्रियासः सुवीरासः वयं वयं कल्याणपुत्रपौत्राः सन्तः उत्तमपुत्रपौत्रादिसमन्विताः वयम् अत्र प्रियशब्दस्य कल्याण इति मङ्गलकर सुवीराः वीरशब्दस्य अत्र पुत्रपौत्राः इत्यर्थः
इन्द्रस्य कृते पुत्रपौत्राः
न न न वयं वयं कीदृशाः इति चेत् वयं अत्र किमस्ति इति चेत् वयन्त इन्द्र विश्वः प्रियासः सुवीरासः विदथम् आवदेम विदथं वयं भवतः स्तोत्रं वदामः वयं कीदृशाः भूत्वा भवतः स्तोत्रं वदामः मङ्गलकर पुत्रपौत्रादिसमन्विताः भूत्वा भवतः स्तोत्रं वदामः इति अस्ति तत्र वयं कीदृशाः भूत्वा इत्यस्य वयं पुत्रपौत्रादियुक्ताः प्रियासः सुवीरासः वयं विश्वः सर्वेषु अहस्सु सर्वेषु दिनेषु इत्यर्थः वयम् उत्तमपुत्रपौत्रादिसमन्विताः ते भवतः विश्वः प्रतिदिनम् इत्यर्थः सर्वदा इत्यर्थः विदथं स्तोत्रम् आवदेम ब्रूयाम अन्ते इदम् उच्यते अन्तिमा एषा प्रार्थना चतुर्दशपर्यन्तम् इन्द्रस्य गुणगानं कृतम् अन्ते एषा प्रार्थना अस्माकम् उत्तम पुत्रपौत्रादिप्राप्तिः भवतु तादृशाः भूत्वा वयं प्रतिदिनं भवतः भवान् अस्ति भवतः प्रतिदिनं वयं प्रार्थनां कुर्मः ॐ सहना भवतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहैः ॐ